भगवत गीता का पाणि दोषो बहात स्वभावः प्रच्छामि त्वां धर्मसमूढचेता याचेयः स्यात् निश्चितं ब्रूहि तन्मे शिष्यतेऽहं साधि मातां प्रपन्नम्।